हरी ओम। हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मावह तां आवह जातवेदो लक्ष्मी मनपगामिनी यस्यां हिरण्यं विन्देयं कामश्वं पुरुषानहं शतां पां वृणे आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं वृद्धिं ददातु मे शुक्पिपासामलां ज्येष्ठां लक्ष्मी नाशयाम्यहम् आभूतिमसंवृद्धिं च सर्वान् निर्णुदमे गृहम् कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियं वासय मे कुले मातरं पद्ममालिनी आपत्सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे निच देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनी चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मावह करिणीं यष्टिं सुवर्णां हेममालिनी हिरण्यं प्रभूतं गावो दास्यो शान्विन्देयं पुरुषानहं यः शुचिः प्रयतो भूता जुहुयादा जमन्वहं सूक्तं पञ्चदशर्षं च श्रीकाम सततं च पे श्वादिगवेरथं प्रजानां भवसि माता आयुष्मन्तं करोतु मां धनमग्निर्धनं वायुर्धनं सूर्योर्धनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णु मनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व तनयां श्रीरङ्गधामेश्वरी दासीभूतसमस्तदेववनिता लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधरा त्वां त्रैलोक्यकुटुम्बिनीं सरसिजा वन्दे मुकुन्दप्रिया कमरासनस्था बादार्क कोटि प्रतिभा शोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यं विष्णुपत्नीं क्षमां देवीं माधवीं माधव प्रियां विष्णुः प्रिय सखीं देवीं नमामि च्युत वल्लभा महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् श्रीवरचस्य संवत्सरं दीर्घमायुः ऋणरोगादि दारिद्र्य पाप क्षुदप मृत्यवः भय शोक मनस्तापा नश्यन्तु मम सर्वदा य एवं विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः।